अथ लिङ्गाष्टकम् ब्रह्ममुरारिसुरार्चितलिङ्गम् निर्मलभासितशोभितलिङ्गम् जन्मजदुःखविनाशकलिङ्गम् तत्र नमामि सदाशिवलिङ्गम् देवमुनिप्रवरार्चितलिङ्गम् कामदहं करुणाकरलिङ्गम्।